सर्वेभ्यः नमो नमः।
वागर्थादिरसम्प्रक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ। ॐ येनाक्षरसमाम्नायम् ॐ येनाक्षरसमाम्नमाय ॐ येनाक्षरसमाम्नायमगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तम् तस्मै पाणिनये नमः। ॐ ॐ सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरि ओम्।
सर्वेभ्यः नमो नमः। धन्यवादः पापाजी, सुन्दरम्। अस्तु, सो एका कथा अस्ति, प्रयत्नशीलानां देवोऽपि सहायकः। सर्वे पुरतः अस्ति वा? अस्तु अस्तु, कविता भगिनी पठतु भगिनी एकवारं।
भगिनी विच् कथा भगिनी?
प्रयत्न शीर्षक अस्ति, प्रयत्नशीलानां देवोऽपि सहायकः।
Have you sent via email? Last one month.
Bhagini, last week we used, right, Bhagini? That one.
Right, right. Okay, Bhagini.
Gata varge, tadeva vayam patha. Astu.
Bhagini.
Patatu, Bhagini.
Prayatna shilanam devo api sahayakam.
Sahayakaha.
Sahayakaha. एकः देवभक्तः आसीत्। सः प्रतिदिनं भक्त्या देवस्य प्रार्थनां करोति स्म। देव कृपया मह्यम् आरोग्यं यच्छतु, धनं यच्छतु। देव कृपया मह्यम् आरोग्यं यच्छतु, धनं यच्छतु इति। सः किञ्चिदपि प्रयत्नं न अकरोत्, किमपि कार्यं न अकरोत्। देवः एव सहायतां करिष्यति इति तस्य विश्वासः आसीत्। Shall I continue?
धन्यवादः भगिनी। शैलिजा भगिनी अग्रिमम् अग्रिमपरिच्छेद पठतु।
आं भगिनी, एकस्मिन् दिवसे सः ऋषभशकटेन गच्छति स्म। ऋणमार्गः आसीत्, तदैव वृष्टः आरभत। घटिकात्रयं वृष्टः निरन्तरम् आगतवती। वृष्टिः निरन्तरम् आगतवती। तदा तस्य शकटस्य चक्रं मार्गे पङ्के निमज्जितम्। सः उपविश्य प्रार्थनां कृतवान्, देवा कृपया मम सहायं करोतु, अहं तु तव परमभक्त्योऽस्मि, मयि कृपां करोतु इति।
धन्यवादः। अस्तु पापाजी अग्रिमम्।
तस्मिन् अवसरे एकः सज्जनः तत्र आगतवान् भक्तं दृष्ट्वा पृष्टवान् भूमित्र काचित् सहायता वाञ्छसि न वा इति तदा भक्तः उक्तवान् भवतः साहाय्यं न आवश्यकं देवः एव मम साहाय्यं करिष्यति इति तदा सज्जनः गतवान् एवमेव प्रकारेण क्रमशः अनेके जनाः आगच्छन् पृच्छन् च भूमित्र किञ्चित् साहाय्यम् आवश्यकं न वा इति सः तथैव उत्तरत् यत् देवः एव साहाय्यं करिष्यति.
धन्यवादः पापाजी. दीप्षिका भगिनी.
वृष्टिः तत्र
वृष्टिः तीव्रा दीप्षिका भगिनी अस्ति वा? वृष्टिः तीव्रा
अभवत् जलं तस्य कण्ठपर्यन्तम् आगतवान् तथापि तेन किमपि प्रश्नं न कृतम् परिणामतः अन्ते सः जले निमग्नः भूत्वा मृतवान्. मरणानन्तरं सः स्वर्गं गतवान् देव पृष्टवान् भो देवञ्च पृष्टवान् भो देव अहं भवतः परं भक्तोऽस्मि तथापि भवान् सङ्कटकाले मम सहायतायै न आगतवान्
मम
किमर्थम् इति
मम पुनः पठतु. तथापि
भवान् सङ्कटकाले मम
सहायतायै
न आगतवान् किमर्थम् इति.
उत्तमम् सुधा भगिनी अग्रिमं पश्यतु.
तदा देवः उक्तवान् भो भक्त अहं तु अनेकवारम् आगतवान् पृष्टवान् च सहायम् आवश्यकं न वा इति परन्तु भवान् न स्वीकृतवान् यदि भवान् प्रयत्नम् एव न करोति तर्हि अहं कथं सहायं कर्तुं शक्नोमि इति.
धन्यवादः. अस्तु कविता भगिनी पुनः पठतु.
देवस्य वचनानि श्रुत्वा भक्तस्य ज्ञानोदयः अभवत् यत् प्रयत्नशीलानां देवोऽपि सहायकः.
उत्तमम् अस्तु. प्रथमपरिच्छेदे किम् अभवत् कविता भगिनी स्वस्य वाक्यैः वदतु. प्रथम
पहले पैराग्राफ में क्या आया है वो मैं अपने शब्दों में बताऊं.
उत्तमम् करोतु, प्रयत्नं करोतु भगिनी.
एक देवभक्त थे, वे प्रतिदिन भक्ति के द्वारा भगवान को प्रार्थना करते थे इस प्रकार से, देव कृपया मुझे अच्छा आरोग्य मतलब के तबियत हेल्थ अच्छा देना और धनम यच्छतु के पैसे मतलब धन भी अच्छा देना. इस प्रकार वे किंचित अभी प्रयत्न न करो, थोड़ा भी खुद प्रयास नहीं करते थे, हार्डवर्क नहीं करते थे, प्रयत्न नहीं करते थे और किमपि कार्यम न करो ऐसी कुछ काम नहीं करते थे. देवः एव सहायतां करिष्यति इति तस्य विश्वासः आसीत्। उनको विश्वास था कि उतनी उनकी प्रार्थना सुनकर देव उनका हेल्प कर देंगे, उनको खुद से कुछ करने का नहीं था जरूरत, ऐसे वो सोचते थे।
अस्तु, अधुना संस्कृत भाषायां वाक्यैः वदतु, किञ्चित् किञ्चित् प्रयत्न करोतु, तदेव। कविता भगिनी प्रयत्न करोतु।
यस भगिनी, आई एम I mean, nursery and you're asking me to give a board exam, I think so.
No, no, prayatna karutu bhagini. Ek varam karutu.
No, bhagini, maybe later on, let me listen to a few, then maybe, because right now I'm a little blank, so, sorry.
Shailija bhagini, karutu bhagini, prayatna karutu. Prathama pray chede, swasya, स्वस्य वाक्यैः एकवारं वदतु भगिनि।
ऐ ट्रै भगिनि, ऐ एम् आल्सो नाट् श्योर् आफ्
करोतु करोतु। एकः
प्रथमतया एकः देवभक्तः आसीत्
पूर्वस्मिन् काले। यु केन् आल्सो एड् अ फ्यू थिङ्ग्। सम् टैम् अगो, लाङ्ग् टैम् अगो, पूर्वस्मिन्, लाङ्ग् टैम्, पहले के टैम् मे, सप्तमी, पूर्वस्मिन् काले।
आं भगिनि, सः सः देवभक्तः, देवस्य भक्तः अस्मि,
अस्ति
अस्ति भक्तः अस्ति,
भक्तः अस्ति, तदेव
एषः देवभक्तः।
कः देवभक्तः? कः
देवभक्त? देवस्य भक्तः, देवभक्तः।
उत्तमम् उत्तमम्।
एषः प्रतिदिनं प्रार्थना करोति।
हा, प्रतिदिनम् इत्युक्ते दिनं दिनं प्रति,
दिनं दिनं,
दिनं दिनं प्रति, दिनं दिनं प्रति मीन्स् डेलि डेलि एव्रिडे। हा, दिनं दिनं, दिन दिन को प्रति, एव्री हर दिन को। सः दिनं दिनं प्रति,
सः दिनं दिनं प्रति प्रार्थनां करोति।
कया करोति? किं
मम इति
न न इति भगिनि केन भावेन?
केन भावेन? धनरूपेण, आरोग्यम्, आरोग्यं
भाव, प्रार्थना, प्रार्थनां तु करोति। प्रार्थनां केन? केन इत्युक्ते विभक्ति,
केन इस् चतुर्थी,
न न न न केन इत्युक्ते,
सोरि भगिनि,
तृतीया विभक्ति,
तृतीया, तृतीया इत्युक्ते
तृतीया, या तृतीया इस् वित्,
हा वित्, भावेन, केन भावेन प्रार्थनां करोति इत्युक्ते,
इत्युक्ते प्राप्तं धनं
भावसे, भावसे उसका भाव क्या,
भक्तिभावसे, हा भक्तिभावसे।
भगिनी शृणोतु, केन भावेन प्रार्थनां करोति स्म?
भक्तिभाव, भक्तिभाव, भावः,
विभक्ति किं भगिनि?
भावेन, भक्तिभावेन प्रार्थना करोति,
भक्ति, भक्तिभावेन, भक्ति,
सप्तमी, नो नो तृतीया भगिनि, सारी,
भावः,
भावः इस् पुल्लिङ्गशब्दः अस्ति,
भक्ति कीदृशपदं? भक्ति,
भक्ति, भक्ति इस् इकारान्त, ह्रस्व इकारान्त,
ह्रस्व इकारान्त, अपि लिङ्गं
स्त्रीलिङ्ग
अस्ति चेत् किं?
स्त्रीलिङ्गम् अस्ति भगिनि, भक्ति इस् बोत् पुल्लिङ्ग अण्ड् स्त्रीलिङ्ग आल्सो, बट् हियर् देव, देव भक्तः इस् पुल्लिङ्ग अस्ति चेत् सो पुल्लिङ्गशब्दः आयाति।
न न न, देवभक्तः तु विषय,
देवभक्तः,
भक्तः अस्ति, भक्तः आसीत्, अधुना तु
भक्तः प्रार्थनां करोति. अस्तु, भक्तः तु कर्तृपदं, प्रार्थनां कर्मपदं, करोति तु क्रियापदं. तदनन्तरं केन भावेन,
केन भावेन,
भक्तिभावेन, अपि च तृतीया अस्ति चेत् भक्ति इकारान्त अस्ति, कोऽपि साहाय्यं करोति,
मतिः, मतिवत्
तृतीया अस्ति चेत्
मति इस् सोरि भगिनी स्त्रीलिङ्ग आयाति.
करोतु भगिनि, भक्ति तु स्त्रीलिङ्ग अपि अस्ति. तृतीया
बट् भगिनी हियर् can't we use like I thought like you we have to use like bhakti as a female female kind of word, because in spoken Sanskrit it has given as bhakti in female pullinga and strilinga also.
So kimartham atra tu striling va pumlinga
pullinga va
neva samaneva ityukte kimartham pumling avashyakam.
देवस्य पुल्लिङ्ग अस्ति चेत् ऐ थाट् वी हाव् टु यूस् ओन्ली भक्ति एस्
भक्ति इस् बै इट् सेल्फ् नो देवस्य इत्युक्ते षष्टि
नो भगिनि वाट् ऐ सोरि नाट् देवस्य देवभक्तः इस् पुल्लिङ्ग हियर् द केरेक्टर् इस् द मेल् केरेक्टर् सो ऐ थाट् वी हाव् टु यूस् द ओन्ली द मेल् वर्षन् आफ़् भक्ति ऐ मीन् पुल्लिङ्ग शब्दः
न न न कर्तृपदं भिन्न अस्ति. अधुना तु इत्युक्ते केन इत्युक्ते तृतीया द्वारा किस्के द्वारा वो तो आप
भक्तिद्वारा
भक्तिद्वारा इट् इस् ओन्ली अबौट् भक्ति द लिङ्गम् आफ़् भक्ति इस् नाट् अबौट् द लिङ्गम् आफ़् द कर्तृपदम् अन्रिलेटेड् द टु डोण्ट् हेव् टु हेव् द सेम् लिङ्ग भगिनि. सो भक्ति तु तृतीयरूपं किं भगिनी वदतु
भक्त्या. सो इट् इस्
केन भावेन
भक्त्या भावेन भक्त्या भावेन
भक्त्या भक्त्या तु समीचीनं. भक्त्या इत्युक्ते भक्तिभावेन इत्युक्ते किं भक्त्या भक्त्या इत्युक्ते किं तृतीया एव
भक्त्या. इट् सेस् लैक् मत्या भगिनी सो इस् इट् नाट् भक्त्या भक्त्या भावेन.
उत्तमं भगिनी, किन्तु भक्त्या समीचीनं भक्त्या सम्पूर्णं पर्याप्तम् इत्युक्ते भक्त्या भावेन तु आवश्यकं नास्ति. भावेन तु आवश्यकं नास्ति तत्र भक्त्या इत्युक्ते किं.
ऐ अण्डर्स्टाण्ड् भगिनि. भक्त्या इट्सेल्फ सेज़ द वर्ड् वित् भक्ति सो वी डोण्ट् नीड् टु यूस् भक्त्यभावेन.
तदेव अधुना देवभक्तः पुनः वदतु वाक्यं देवभक्तः
देवभक्तः
दिनं प्रति पुनः वदतु.
आं भगिनि, देवभक्तः दिनं दिनं प्रति भक्त्या प्रार्थनां करोति.
अपि च देवभक्तः दिनं दिनं प्रति प्रार्थनां करोति केन भावेन करोति इति
भक्त्या भावेन
इति
केन भावेन. हा भगिनि, केन भावेन करोति भक्त्या भावेन करोति
भक्त्या
प्रार्थनां करोति भक्त्या भावेन भक्त्या
करोति
प्रार्थनां करोति
भक्त्या प्रार्थनां करोति कस्य 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 प्रार्थनां करोति लघु लघु भगिनी मैं क्या बोल रही हूँ छोटे छोटे प्रश्न पूछो और उत्तर दो. दैट गिव्स यू अभ्यास इन आस्किंग नोइंग कि भाई इस वाक्य में कितनी सारी चीजें हैं.
हाँ भगिनी.
हाँ सो प्रथम
देव
कह प्रार्थनाम करोती वदतु कह वदतु
कह देव भक्तः प्रार्थनाम करोती.
प्रथम तु प्रश्न वदतु भगिनि एकवारम्.
आं भगिनि, कः प्रार्थनां करोति देवभक्तः प्रार्थनां करोति
कं
प्रार्थनां करोति दिनं दिनं प्रति प्रार्थनां करोति कं प्रार्थनां करोति
कम् इत्युक्ते किं कं विभक्तिरूपं किम् सोरि भगिनि इट्स् आल् औट् आफ् मैण्ड्
कम् इत्युक्ते अपि च कस्मिन् इत्युक्ते कस्मिन् करोति
कस्मिन् इस् सप्तमी विभक्ति
कस्मिन् करोति उत्तरं वदतु
भक्त्या सोरि भगिनि
कस्मिन् इत्युक्ते
कस्मिन् वेर्
हा वेर् अपि च अधिकार न
हा अधिकार पोसेसिङ्ग्
नाट् पोसेसिङ्ग् भगिनि यू केन् से कस्मिन् इस् अधिकार ओर् यू केन् यूस् वित् दट् इस् सिम्प्लर् वै डोण्ट् यू से कदा करोति
कदा इस् वेन्
कदा
कदा करोति कदा देवभक्तः प्रार्थनां करोति दिनं दिनं प्रतिदिनं प्रार्थनां करोति
दिनं दिनं प्रतिदिनं तु न दिनं दिनं प्रति प्रार्थनां करोति अस्तु कस्य प्रार्थनां करोति
कस्य षष्टिविभक्ति देवस्य कस्य प्रार्थनां करोति देवभक्तः देवस्य प्रार्थनां करोति
कं करोति कम् इत्युक्ते Where are you checking? Tell me the page.
Kam is Tritiya Vibhakti.
Yeah.
Sorry, Bhagani. Kam...
Where are you?
Page 68.
No, let her tell. What is page are you on?
No, actually, I got the printouts for Prashna Vachaka Shaptaha.
So tell me which table you are on, Bhagini. What is the name of the table?
Now I open Shaptamanjari Bhagini. I'm in page number 66.
Tell me which table you are looking at, Bhagini. Every table.
I'm looking at Kim, Bhagini. Kim, Prashnavachaka Kim, Kim table.
Kim, which lingam are you looking at?
Pullinga Shaptaha.
Kam Mityukte.
Kam is Dritiya Vibhakti. Ekvachana Shaptaha Asti.
इत्युक्ते कं करोति इत्युक्ते
देवभक्तः
न कं करोति इत्युक्ते
किस्को करोति कम् इस् लैक् टु हूम् हि इस् प्रेयिङ्ग्
कं करोति इत्युक्ते कीदृशपदं
कम् इस् द्वितीयविभक्ति एकवचन प्रश्नवाचकशब्दः अस्ति
उत्तमम् इत्युक्ते कर्मपदम् अस्ति वा न वा
आं भगिनि कर्मपदं
वाक्ये कर्मपदं किम्
प्रश्न पुनः वदतु भगिनि कृपया
एकं वाक्यं दत्तं सः प्रतिदिनम् अहं पठामि सः प्रतिदिनं भक्त्या देवस्य प्रार्थनां करोति स्म अधुना कर्मपदं किम्
कर्मपदम् इस् प्रार्थनां
कं करोति
देव को करोति देवः देवं
कं
करोति
क्या करता है प्रार्थनां करोति
कम् इस् द्वितीया विभक्ति एण्ड् इट् इस् लैक् टु हूम् हि इस् प्रेयिङ्ग् नो भगिनि हूम् इट् कम्स् लैक्
भगिनि अहं खादामि कर्तृपदं किम्
अहं
क्रियापदं किं
खादामि
कर्मपदं किं
भोजनम् इस् इम्प्लाइड् वन्
इत्युक्ते खादामि किं भोजनं खादामि अत्र करोति किं
प्रार्थनां
करोति तदेव भगिनि कर्मपदम् अस्ति कस्य करोति कस्य प्रार्थनां करोति
कस्य षष्ठी देवस्य कस्य प्रार्थनां करोति देवस्य प्रार्थनां करोति
प्रार्थनां करोति उत्तमं केन भावेन करोति
भक्त्या प्रार्थनां करोति.
तदेव उत्तमम् उत्तमम्. अधुना सम्पूर्णतया वदतु सर्वाणि सर्वे प्रश्ना प्रश्नान् वदतु अपि च उत्तरान् वदतु. वदतु.
आं भगिनि, पूर्वं देवः भक्तः आसीत्. कः आसीत् देवभक्तः आसीत्. सः प्रतिदिनं सः दिनं दिनं प्रति भक्त्या देवस्य प्रार्थनां करोति. सः किं करोति? सः प्रार्थनां करोति. सः देवभक्तः देवस्य प्रार्थनां करोति. सः कं करोति? सः प्रार्थनां करोति. सः कस्य करोति? सः देवस्य सः देवभक्तः देवस्य प्रार्थनां करोति.
अधुना अग्रिम
तृतीयविभक्तिप्रश्न तृतीयविभक्ति हा केन प्रार्थनां करोति?
केन न केन भावेन
केन भावेन केन इस् तृतीयविभक्ति केन भावेन देवस्य प्रार्थनां करोति ऐ मीन् देवभक्तः प्रार्थनां करोति. देवभक्तः भक्त्या प्रार्थनां करोति.
उत्तमम्. अधुना अवगतम्?
आं भगिनि. ऐ एक्चुलि वास् औट्सैड् फ्रम् मार्निङ्ग् अण्ड् ऐ जस्ट् केम् होम् अण्ड् ऐ जस्ट् लाक्ड् इन् सो मै मैण्ड् वास् रियलि नो
न न चिन्ता मास्तु चिन्ता मास्तु किन्तु अभ्यासेन एव.
आं भगिनि
प्रगति
ऐ एम् वेरि सारि.
न न चिन्ता मास्तु भगिनि, किन्तु दिस् कैण्ड् आफ् अभ्यास विल् हेल्प् यु अण्डर्स्टाण्ड् द विभक्तिस् बिकास् यु हव् टु क्वश्चन् एव्री विभक्ति इस् दि ओन्ली वे. कीप् क्वश्चनिङ्ग् वन् सिम्पल् सेण्टेन्स् यु कीप् आस्किङ्ग् एण्ड् this is the way to simplify any. See, now you have simplified this sentence into so many sentences, correct?
Yes, Bhagini.
That is what I asked. In your own simple sentences, say what happened. This is all that happened so far. Uttamam. Adhuna Kavita Bhagini. Deva Kripaya Mahyam Arogyam Yachchatu Dhanam Yachchatu Iti. लघु लघु प्रश्नान् वदतु, तदनन्तरं सम्पूर्णतया उत्तरं वदतु. करोतु. कः वदति?
देवभक्तः वदति.
देवभक्तः वदति. किं वदति?
प्रार्थनां वदति.
प्रार्थनां किम्?
प्रार्थनां किं सोरि किं विल् बि किम् किं का क्या मीनिङ्ग् होगा वाट् क्या क्या प्रार्थना
तो प्रार्थना प्रार्थना किं
देवस्य ओ भगवान् को प्रतिदिनं डेली प्रार्थना तो ये प्रार्थना हा मह्यम् आरोग्यं यच्छतु धनं यच्छतु इति
कृपया
ये वाली प्रार्थना वो कहते हैं.
हे देव कृपया मह्यम् आरोग्यं यच्छतु. मह्यम् इत्युक्ते प्रश्नवाचक किम्?
किस्को
विभक्ति किं? चतुर्थी विभक्ति. चतुर्थी विभक्ति अस्ति चेत् प्रश्नवाचक किम्? कस्मै यच्छतु? मह्यं यच्छतु. कस्मै यच्छतु इत्युक्ते
कौन् इच्छा कर रहा
है, किसके लिए,
जिसके लिए क्रिया की जाए.
यच्छतु इत्युक्ते आप दो, मुझे दो, किसके लिए दो, कस्य
मेरे लिए, मह्यं,
मह्यं यच्छतु, किम् अथवा कम यच्छतु,
आरोग्यम एवं धनम.
आरोग्यम एवं धनम इत्युक्ते कौ यच्छतु,
क्या दो चीज इच्छा कर रहे हैं वो, तो आरोग्यम एवं धनम.
कौ, कौ विभक्ति रूपम किम,
कौ
कौ इज द्वितीय विभक्ति द्विवचन रूपम. And I'm smiling because it used to be my bachpan ka pet name, Kau.
Oh. Uttamam. Uttamam. Kau yachatu arogyam dhanam cha yachatu. Kasmai yachatu?
Kasmai. Kiske liye? Mahyam.
Mahyam yachatu. Kena yachatu? Kaya yachatu?
Kena srutiya. से के द्वारा, सो भगवान से, सो वो भगवान से, सो देवस्य, देवस्य
केन, केन इत्युक्ते तृतीया इत्युक्ते
देवः, देव
केन, केन विभक्ति रूपं किं भगिनी, तृतीया,
तृतीया के, से के द्वारा,
द्वारा, द्वारा किसके,
प्रार्थना, प्रार्थना के द्वारा,
किसके द्वारा इत्युक्ते प्रथमवाक्यं तु भक्त्या, भक्ति okay. द्वारा,
राइट,
भक्ति द्वारा. अधुना किम्, कृपया, कृपया विथ कृपा यू डू इट प्लीज, डोंट जस्ट गिव इट.
ओके,
कृपया हे देव कृपया यच्छतु. केन यच्छतु, कृपया यच्छतु, कया यच्छतु, कृपया यच्छतु,
कया विल बी व्हाट एग्जैक्टली, क्या नहीं, किसके द्वारा,
स्त्रीलिंग रूपम कृपया, कया अपि वा, अपि च केन, किमपि प्रश्न तु प्रश्न अस्ति.
आम् भगिनि,
केन यच्छतु इत्युक्ते कृपया यच्छतु, यच्छतु पर्यायवाची शब्द किं वदतु, पर्यायवाची इत्युक्ते
सेम सिनोनिम,
वदतु संस्कृतभाषायां. दो,
ओके,
भगवान् मुझे दो इत्युक्ते
यच्छतु, इच्छा करना.
इत्युक्ते धातु किं सुधा भगिनी,
ददतु,
धातुतः किं भवति, दा धातुतः रूपाणि कानि,
to give of a dad, dada, dada, dane, vadihi, atmanepadi, akarmakah, seth, wo wala?
Rupani, Rupani vadatu?
No, dada, no, I have opened the wrong one.
Gana kim? Kaha gana ha, tatra?
I'll just tell you. Third gana, da dhatu.
Juhotyadihi.
Juhotyadihi.
Juhotyadihi. Dudai.
Dudai. Dudai dane.
Dane. Dudai.
Letlaka.
Dudai tu mool rupamasti. Dhatu.
Da.
धातोः मूलरूपं किं, दुदायि,
अर्थः कः दाने दाने जुहोत्यादिः जुहोत्यादि इत्युक्ते तृतीयगणः तृतीयगणः किम्
आम्
जुहोत्यादि
जुहोत्यादिः
उभयपदी अस्ति इत्युक्ते परस्मैपदी अपि आत्मनेपदी रूपाणि सन्ति परस्मैपदी रूपाणि अपि च आत्मनेपदी रूपाणि
आत्मनेपदी
अधुना ददाति तु लट् अस्ति किन्तु अत्र किं यच्छतु लकार किं तत्र यच्छतु लका कोऽपि साहाय्यं करोतु दीक्षिका भगिनी यच्छतु लकार किं
लोट् लोट् लकार
लोट् अस्ति अधुना दा धातुः लोट् किं लोट् रूपाणि वदतु
दत्तात् ददातु दत्ताम ददतु देहि दत्तात् दत्तं दत्त ददानि ददाव ददाम
अधुना किं रूपं समीचीनम् हे देव आरोग्यं धनं किम्
भगवान से प्रार्थना कर रहे ये मेरी इच्छा इच्छा तो सिंगुलर हुई तो ये मैं इच्छा कर रहा हूँ मैं आज्ञा
ना इच्छा नहीं ददा इच्छुक्ते यच्छतु दे दो मुझे दो गिव अस्ति चेत् अत्र साधु रूप
ये ददातु वाला सूट करेगा
हाँ किमर्थम ददातु किमर्थम ददातु साधु
क्योंकि ये मैं नहीं हूँ सिंगुलर मैं किसी और से नहीं ये मैं आप विथ रिस्पेक्ट बोल रहा हूँ उनको
आप भी नहीं देव तो नामा एव यथा राम
okay, नाम लेकर मैं उनको थर्ड पर्सन को एड्रेस कर रहा हूँ
तो थर्ड पर्सन सिंगुलर पर्सन देव
ओके ओके
देवौ नास्ति
करेक्ट
देवाः देवाः अपि नास्ति एकमेव देव
जी
एकः देव अस्ति चेत् हे देव ददातु ददातु कं ददातु
आरोग्यम् एवं धनम्
पत् पृच्छतु
भगिनी एकं प्रश्नः अस्ति इति समान अर्थेन अन्येक दा भुआदिगणः धातु अस्ति दान् देने लट् रूपम् लोट् रूपम् अस्ति यच्छतु
यच्छतु तदेव अहं पृच्छामि दा धातुतः वदतु इति अहं पृच्छामि पर्यायवाचि शब्द अस्ति चेत् ददातु दा रूपम् औपदेशिकरूपं किम्
दान देने दाने
दान
दान दाने
दान इत्युक्ते भ्वादिगणे अस्ति तदनन्तरं यच्छतु आयाति धातु अस्ति किन्तु मूलरूपं किं दान भेदः अस्ति तत्र भ्वादिगणे अस्ति अपि च परस्मैपदी अस्ति किन्तु ददातु कीदृशपदम् दुदायितः आयाति दुदायितः आयाति ददातु अपि च दा एव अस्ति किन्तु मूलरूपं तु दुदायि यच्छतु मूलरूपं किं दाण भेदः अस्ति अस्ति वा न वा
अस्ति भगिनि
उत्तमम् उत्तमं सुन्दरं सुन्दरम् अस्तु
भगिनि यच्छतु आल्सो कम्स् एज़ अ पार्ट् आफ् यम् यमो उपर मे इट् मीन्स् टु स्टाप् टु रेसिस्ट् टु हिन्डर् ऐ जस्ट् पुट् द सर्च् वित् यच्छतु सो इट् गेव् टु आप्शन्स् द लोट् लकारः फार्म्
अस्तु अस्तु हा हा तत्तु भवितुम् अर्हति मा भगिनी किन्तु अत्र तु किं साधु दाण दाने अस्ति चेत् यच्छति यच्छतः यच्छन्ति आयाति किन्तु दा दुदै अस्ति चेत् ददातु आयाति तत्तु भेदः अस्ति अवगतम्
आम् आं भगिनि
अर्थः तु समानेव दाने एव अर्थः तु समानेव हिन्दीभाषायाम् अपि च संस्कृतभाषायां दाने किन्तु मूलरूपं तु भिन्न अस्ति दुदायि अपि च दाण् अपि च रूपाणि भिन्न सन्ति भिन्नानि सन्ति यच्छति अपि च ददाति अधुना स्वस्यैः वाक्यैः वदतु प्रार्थना कविता भगिनी हे भगवान्
अद्य हे भगवान् कृपया मह्यं संस्कृतं
इति एव आरोग्यम्
आरोग्यम् यच्छतु को रिप्लेस् करना है
हा करोतु भगिनि
ददातु देव कृपया मह्यम् आरोग्यं ददातु धनं ददातु
धनं ददातु सो अस्तु अत्र लघु लघु प्रश्नान् पृच्छतु प्रश्न तदनन्तरम्
एक प्रश्न अस्तु ये इसने यहाँ है देव कृपया मह्यम आरोग्य मह्यम मह्यम तो चतुर्थी विभक्ति है
तदेव
तो मह्यम का मतलब होता है मेरे लिए तो वो वाक्य में कैसे फिट होता है वो बोल रहा है देव कृपया मेरे लिए आरोग्यम यच्छतु मेरे लिए हेल्थ चाहिए अपन ऐसा नहीं बोलते अपन बोलते मुझे स्वस्थ स्वस्थ रखना और मुझे धन देना मुझे बोलेंगे ना
तो मेरे लिए था हिंदी भाषायाम दो दो इति इति क्रियापदस्य प्रयोजनं कुत्र कुर्मः कुत्र कुर्मः द्वितीयकर्मपदं योजयित्वा कुर्मः किन्तु संस्कृतभाषायां दा धातु इत्युक्ते दाण् अपि दुदायि धातुतः सर्वदा चतुर्थी आवश्यकम् सर्वदा चतुर्थी एव योजयित्वा वाक्यानि वदामः सर्वदा हम लोग किसी को कुछ नहीं देते संस्कृत में किसी के लिए देते हैं
अपने लिए भी
अपने लिए भी अपने लिए किसी क्योंकि मुझको सी संस्कृत में मुझको नहीं मिलती है चीज मेरे लिए आती है मैं उसका प्रयोग करूं या ना करूं मतलब मैं कोई एंटिटी नहीं हूं जो मैं ले लूं मेरे लिए है मैं उसको प्रयोग कर सकती हूं वो लेने लायक चीज ही नहीं है मतलब जीवन में कुछ मुझको देना मीन्स इट बिकम्स आई बिकम द पोजेसर मेरे लिए माने मेरे उपयोग के लिए और क्या करेंगे आप उससे ज्यादा आप कुछ कर ही नहीं सकते आपके लिए कुछ होगा तो स्लाइटली डिफरेंट थिंकिंग
मेरे लिए आरोग्य शरीर चाहिए ये बोल रहा है वो आरोग्यम इच्छतु
मेरे लिए माने जिस पर्पज से मैं आया हूँ यहाँ पे उस पर्पस के लिए मैं हूं ही क्यों यहाँ पे, जीवन ही क्यों है, कोई एक लक्ष्य है मेरे लिए, माने मेरे लक्ष्य के लिए मेरे को, दैट मीन्स इट इज अ रिमाइंडर ऑफ यू एंड योर लक्ष्य इन लाइफ एंड दैट यू आर नथिंग बट अ जर्नियर, यू आर अ ट्रैवलर. नहीं तो हम मेरे लिए मतलब हम यहाँ लेके बैठ जाते हैं, तभी तो हमको बार बार गीता सार बताती है कि यहाँ सब कुछ छूट के जाएगा, तुम्हारा हर पैसा यहाँ छूट के जाएगा. क्यों बार बार हमको सुनना पड़ता है? क्योंकि हम लोग हिंदी में उस चीज को लेके बैठ जाते हैं, ये मेरी है, ये मुझको दी है भगवान ने, ये मूर्ति मुझे दी है साक्षात आके, अब इसको लेके मैं बैठे तो मरोगे क्या तुम? मूर्ति यहाँ छोड़ के जाओगे कि लेके जाओगे? नहीं, याद दिलाना पड़ता है हमको. पापा तो ले जाते हैं. है ना, क्यों हमको बार बार याद दिलाना पड़ता है? इसीलिए भाषा में ही वो चीज याद दिला रही है आपको, ये वो केवल तुम्हारे लिए है, प्रयोग करो और फिर यहीं छूट के जाना है. इसमें तुमको नहीं मिल रहा है, खाली प्रयोग है. अस्तु, सर्वदा चतुर्थी मह्यम यच्छतु, मह्यम ददातु, अपिच रोच रोचते, रुच धातुतः, मतलब किसी में मुझे आनंद आ रहा है तो भी चतुर्थी एव, आनंद भी मेरे लिए होता है, मेरा अपना नहीं होता, मुझको नहीं होता है. संस्कृत भाषायां रुच धातु सर्वदा चतुर्थी एव योजयित्वा वक्तुं शक्नुमः. मह्यं रोचते लड्डुकम्, मह्यं रोचते लड्डू मेरे लिए स्वादिष्ट हैं, लड्डू मेरे लिए मजा दे रहे हैं. तुम्हारे लिए दे रहे हैं या नहीं दे रहे, आई डोंट नो. ये दिस इज ऑल्सो इन संस्कृत. सो सर्टन वर्ड्स ओनली आर यूज्ड विद चतुर्थी, सूत्रज विल टेल यू दैट. अस्तु, देव. हाँ, कविता भगिनी, लघु लघु वाक्य प्रश्नान पृच्छतु.
के किसके द्वारा?
देव भक्तः किम करोति? देव भक्तः
प्रार्थनां करोति. देव भक्तः किं करोति? देव भक्तः प्रार्थनां करोति.
किं प्रार्थनां? किस किं प्रार्थनां? अपि च का प्रार्थना? प्रार्थना कीदृशपदम्?
प्रार्थना
दीर्घ आकारान्त, रमावत्, लतावत्, सीतावत्, गीतावत्, कवितावत्. दीर्घ आकारान्त स्त्रीलिंग पदम अस्ति चेत् द्वितीय विभक्ति एकवचन रूपं. प्रार्थनां कीदृश पदम्? कर्मपदम्. प्रार्थनां करोति कर्मपदम्.
द्वितीय प्रथम फर्स्ट सिंगुलर या द्वितीय रमां प्रार्थनां.
फर्स्ट नो, द्वितीय सिंगुलर.
सॉरी, द्वितीय विभक्ति एकवचन रूपम्.
प्रार्थनां करोति प्रश्नवाचक किम्? काम करोति
प्रार्थनां करोति.
तदेव. यदि न जानाति चेत, अगर हमको पता ही नहीं है उत्तर क्या है प्रश्न का,
तो किम्?
तदनन्तरं किम् अपि समीचीनम्.
तो
अधुना किं प्रार्थनां करोति? प्रश्नः कः?
काम करोति
उत्तरं वदतु.
प्रार्थनां करोति. भगिनी,
सॉरी भगिनी, व्हाट इज काम भगिनी? कम इज द्वितीय विभक्ति एकवचन रूपम, पुल्लिंग आई मीन नपुंसकलिंग शब्दवत. काम
उत्तरं वदतु.
काम इति द्वितीय विभक्ति एकवचन रूपम,
संस्कृतभाषा
में थोड़ा डिफिकल्ट आज फर्स्ट टाइम हिंदी
काम प्रातिपदिकं
काम इज द
न न न
काम प्रातिपदिकं किं शब्द किम् इति अर्थं
भगिनि किं प्रातिपदिकं तः मतलब तः माने प्रातिपदिकस्य तः किं प्रातिपदिकं तः आयाति किं
काम काम इति शब्दः किं प्रातिपदिकं तः आयाति
प्रातिपदिकतः
प्रातिपदिकतः आयाति
धन्यवादः भगिनी अधुना त्रिषु लिङ्गेषु रूपाणि भिन्नानि
yes of the word kim yes
vadatu bhagini
pumlinga shabda rupani kah kauke kam kaukan ken kaabhyam kaihi
kena
kaabhyam kaihi kasmai kaabhyam kebhyah kasmat kaabhyam kebhyah kasya kayoh kesham कस्मिन् कयोः केषु स्त्रीलिङ्गशब्दरूपाणि का के काः काम के काः कया काभ्यां काभिः कस्यै काभ्यां काभ्यः कस्याः काभ्यां काभ्यः कस्याः कयोः कासां कस्यां कयोः कासु नपुंसकलिङ्ग फर्स्ट् टु आर् दिस् किं के कानि सेम् किं के कानि एण्ड् द रेस्ट् आर् लैक् पुंलिङ्गवत्
उत्तमम् उत्तमम् अधुना शैलजा भगिनी काम् इत्युक्ते
काम् इस् किं प्रातिपदिकतः आयाति त्रिषु लिङ्गेषु रूपाणि भिन्नं भिन्नभिन्नं भिन्नानि सन्ति
काम् इत्युक्ते किम्
काम् इस् द्वितीया विभक्ति एकवचन शब्दः अस्ति
सम्पूर्णतया वदतु भगिनि
किं प्रातिपदिकरूपं पुल्लिङ्गशब्दवत्तः काम् आयाति
इति वा पश्यतु पुल्लिङ्गरूपाणि पठतु
नाट् पुल्लिङ्ग् सारि भगिनि इट् इस् नपुंसकलिङ्गरूपं सारि काम् इस्
पठतु नपुंसकलिङ्गरूपाणि पठतु
हा नपुंसकलिङ्ग पुल्लिङ्गम् आर् सेम् काम् कः कौके द्वितीया विभक्ति कं कौ कान् कान्
कम् अस्ति अधुना अहं किं पृच्छामि काम् कीदृशपदं
काम् इस् स्त्रीलिङ्गशब्दवत् द्वितीया विभक्ति एकवचनरूपम् अस्ति
रूपाणि वदतु
काम् के काः
तदेव काम् आयाति अवगतं कर्मपदमस्ति काम् करोति प्रार्थनां करोति
आं भगिनि अवगतम् अवगतं भगिनि
कविता भगिनि
प्रार्थनाम् इस् स्त्रीलिङ्ग शब्दः अस्ति चेत् शब्दः अस्ति चेत् काम् आयाति
तदेव काम् करोति इत्युक्ते यदि भोजनं करोति तदनन्तरं प्रश्नः कः
भोजनम् इस् नपुंसकलिङ्गं कं करोति किं करोति भोजनं करोति
किं करोति उत्तमं तदेव भोजनं करोति अस्तु यदि पाठं करोति तदनन्तरं
पाठं करोति पाठम् इस् आल्सो नपुंसकलिङ्गं शब्दः अस्ति भगिनि
अस्ति वा
पाठं पाठः पाठं
पश्यतु एकवारं Yes, but I'm checking. पुल्लिङ्गवत् पुल्लिङ्गशब्दः अस्ति. पाठम् इस् द्वितीया विभक्ति एकवचनशब्दः अस्ति. पाठं को करोति? सो पाठम् इस् द्वितीया विभक्ति पुल्लिङ्गशब्दवत्. सो पाठम् इस् द्वितीया विभक्ति एकवचनशब्दवत् कर्मपदमस्ति.
प्रश्नवाचक किं भगिनि?
कं करोति?
कं करोति इत्युक्ते किं? गृहपाठरूपेण
कं करोति
स्मरन्तु. यु मस्ट् सिट् एण्ड् मेमरैज़् दीस् बेसिक् फस्ट् सेकेण्ड् थर्ड् फस्ट् सेकेण्ड् अट् लीस्ट् यु शुड् नो फस्ट् एण्ड् सेकेण्ड् विभक्ति यु शुड् नो आफ् राम लता हरि गुरु किं यु शुड् नो दीस् एतत् तद् अस्मद् These tables you have to know, otherwise you have to look for every time table. It is very difficult to make progress. Now we have been studying for 1 year. How long have we been doing this class?
Yes, Bhagini, more than 1 year.
So these you have to sit and know. How did you know how I got to memorize them? Every day I would go for a walk and take my Shabda Manjari and memorize one or two tables. Oh, for 1 hour, same table, without looking, keep going. First you look and say 20 times, 30 times, 40 times. Then without looking, you start saying. Every day. It's the only way. Otherwise, every word you are stuck. And you are guessing. Once you are guessing, that causes sandeha. Sandeha is the downfall of humanity.
Yes, Bhagini.
You have to do this. There is no shortcut. I mean, we have been doing for over 1 year this class. You must become familiar with these, some very, very simple. Rama table, for sure. Rama, Rama. Ityukte Pumlingam, Srilingam. Then, Hari, Ikaranta, Pumling Asti. Mati, Srilinga Asti. गुरु पुंलिङ्गम् अस्ति उकारान्त नदी दीर्घ ईकारान्त स्त्रीलिङ्ग् अस्ति वेरि वेरि फण्डमेण्टल् टेबल्स् आक्चुलि वेरि फण्डमेण्टल् टु नालेज् देन् द किम् हेज़् त्री रूपाणि बिकास् इफ् यु डोण्ट् आस्क् क्वश्चन्स् हौ विल् यु आन्सर् इफ् यु डोण्ट् आस्क् क्वश्चन्स् यु वोण्ट् बि क्लियर् आन् द विभक्ति यु कैण्ड् आफ़् गेस् बट् यु डोण्ट् रियलि नो So, for each word, you should be able to ask the question. That forces you to really come up with the correct vibhakti and the vachana. So, you must know then you must know asmad, aham, avam, vayam. That whole table you should at least know. Then you should know sahatau te, samtau taan, te ratabhyam taihi. You should know this table. These are fundamental tables. Beyond that, then later on, more tables will come. Who memorizes tables here? Sudha Bhagini, you memorize them?
I do, Bhagini.
How do you do it? What is your practice?
I always when I'm not intentionally sitting and studying, I just try to contemplate what I have read. Like Ramaha, all that is in mind. So I would, for the, we know like for Pumlingam, it follows a pattern, right? Raman, Ramena. So I try to do the same with Ka Shabdaha. And for Strilinga, it's first and second, is of course, we know that it's kind of memorized. And for 3 to 7, I use that mnemonic Ya, Yai, Yaha, Yam. And I try to fit that mnemonic for most of the, see if I made it correct. And if I'm stuck, I'll mark it down and later come back and look if I did any mistakes.
you know, when we are not feeling very sharp in our mind, when we are not having a very good clear moment, which is very, very common in humanity, when you are not feeling like, oh my God, I don't think I can do calculus now. Your brain is not feeling very clear. This is the best time to clear the mind as well as memorize tables. It's very simple. It's just there in front of you. You simply have to go over and over again. It does not require brain work. But the abhyasa will return the focus back. It will return clarity to you, and also you will get to learn the table. I mean, the prakriya that we are learning in this Sanskrit varga is actually is very light on memorization. This Swarup Mahodaya's, this modern style of teaching is very light on memorization. The old method, you had to have everything memorized before you even got a teacher, including the Amarakosha, all the meanings, all the vibhaktis, all the sutras, Ashtadhyayi, you had to have had memorized that, all the sutras. Then you found a teacher. Now, at least 5, 6, 10 tables is your fundamental. It's like your beginner tables. You have to, by now 1 year, I haven't asked you to do this, but now after 1 year, I would like you to sit and every day you just take 1 or 2 tables and go over them. And you go over them when you are not feeling very sharp, not feeling very happy, not feeling very clear. It's the best time. Of course, when you are clear, you should do it also. But when your time is being wasted, your mind is mindlessly taking you in loops. It's the best time to bring clarity. Every day you try to do that. You can be, when you are doing manjan, for example, you can have that table in front of you. Take a flashcard. I have all my tables in flashcards. I carry it with me, flashcards. So then it allows you to see clearly what a sentence is, how it is formed. Otherwise, you know the meaning. Like Kavita Bhagini got the full meaning of the first paragraph. But within each word, which is the vibhakti, which is the linga, which is the rupa, this will bring clarity about the language. Astu. Astu. Deva kripaya mahyam arogyam yachatu dhanam yachatu iti. Astu. Deepshika bhagini agrima vakyam patatu.
Saha kinchit dapi prayatnam na akrot.
Akarot.
Na akarot.
Akarot. Devo.
Akarot.
Saha kaha.
Kimapi karyam na akarot.
Haan.
Akarot.
Akarot. Laghu prashna kaha.
Laghu prashna ha.
Saha kaha.
Saha deva bhaktaha.
Saha deva bhaktaha. Astu. Saha kim?
Saha.
Kim akarot? Akarot ki drusha padam?
Akarot. Akarot.
Lakar kim? Artha kaha?
Saha kinchit api prayatnam na akarot. Na akarot. Akarot matlab nahi karta tha.
Lang rupam.
Nahi kiya.
Lang lakar bhagini. Achha. Lang asti chet bhoot kaal arthaka.
Lang is bhoot kaal. Akarot.
Lang akarot. Adau ayati.
Ayati. Ayati.
Ayati. Lang rupa.
Lang rupan.
So,
to nahi kiya.
Akarot ki drusha padam.
Akarot is. नहीं क्या अलंग लकार प्रथम प्रथम पुरुष एक वचन
हाँ इत्युक्ते
इत्युक्ते नहीं किया।
किसने नहीं किया?
देवभक्त न अकरोत्।
अकरोत् इत्युक्ते मेरे और तेरे अलावा किसी ने नहीं किया।
मेरे और तेरे अलावा किसी ने नहीं किया।
हाँ, मेरे और तेरे अलावा, बिकॉज मेरा होता तो अकरवम, उसका रूप बदल जाता, अकरोत नहीं होता। अकरोत इज प्रथम पुरुष। प्रथम पुरुष इत्युक्ते किम?
प्रथम पुरुष मतलब वो सब, ही शी, ये लोग, वो लोग।
ना 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 ना, प्रथम पुरुष इत्युक्ते मेरे और तेरे अलावा ब्रह्मांड में अन्य सब कुछ।
हाँ
हाँ, मेरे और तेरे अलावा। क्यों? क्योंकि मेरा होता तो एक पद का अलग रूप है, तेरा होता तो अकरोहो, एकम अन्य रूपम अस्ति। लेकिन अकरोत कब प्रयोग होगा? मेरे और तेरे अलावा, किसी और के बारे में विषय है ये, है ना? हाँ, अकरोत।
सह, सह न अकरोत,
सह
मतलब वह।
हाँ, न अकरोत इत्युक्ते नहीं किया। सह अकरोत माने उसने किया। सह, सह न अकरोत इत्युक्ते नहीं किया। अकरोत इत्युक्ते किम्? भूतकालार्थक लंग इत्युक्ते पास्ट टेंस। अकरोत माने किया, माने अकरोत माने किया। किसने किया? मेरे और तेरे अलावा किसी ने भी।
देव भक्त ने नहीं किया ना?
हाँ, देव भक्त ने नहीं किया। क्यों देव भक्त? क्योंकि देव भक्त प्रथम पुरुष है।
हाँ,
दैट इज व्हाई अकरोत।
तो उसने नहीं किया।
हाँ, अगर स्वस्य, अगर मैं अपने लिए बताती तो से आई वॉज टॉकिंग अबाउट माई सेल्फ, अहम, अहम अस्ति चेत,
तो अहम मतलब मैं, तो तुम कहती अकम,
अकर्वम,
अकर्म, अकर्व, अकर्मम,
अकर्वम,
अकर्वम, अकर्वम। हाँ,
हाँ, कुत्र अकर्वम? कृ धातु, कृ धातु, पश्यतु एकवारं, कृ धातु डुक्रिंग, डुक्रिंग तनादिगणे अस्ति। लङ्रूपं पश्यतु,
कृ धातु,
कृ धातुतः आयाति लङ्रूपं। अकरोत् प्रथमपुरुष एकवचन, अहम् अकरवम्, त्वम्?
अहम् अकर्व, अकर्वम्, अकर्वमम्,
अकरवम्,
अकरवम्, अकरवम्।
त्वम् अस्ति चेत् त्वम् अकरोहो,
त्वम् अकरोहो।
पश्यति वा?
पश्यति नहीं वा।
वाई क्रू?
हाँ, इसमें, इसमें है अष्टाध्यायी में।
अष्टाध्यायी कहाँ है तुम्हारे पास?
अष्टाध्यायी, सॉरी, ये क्या है, धातु रूप मंजरी में है।
हाँ, धातु रूप में पश्यतु।
पेज बताओ।
118।
लैपटॉप तो नहीं खुला ना हमारा।
अच्छा, 118।
लैपटॉप
क्यों नहीं खुल रहा?
खोले ही नहीं अभी बहुत दिनों से, तो पता नहीं, पड़ा ही होगा वो, क्या मालूम महीनों से।
खोल के नेक्स्ट टाइम, अदरवाइज हाउ विल यू हैव एक्सेस टू अष्टाध्यायी? खोल के चलो, अदरवाइज 118 पेज। बीना भगिनी, यू शुड बाय द शब्द मंजरी पुस्तक, देन यू विल हैव ऑल द टेबल्स।
108 बोला?
18।
118 में तो नहीं है, भविष्यति है, भविष्यतः है, भविष्यन्ति।
118 में देखिए आप, कहाँ
है? हाँ, 118 देख रहे ना, धातु रूप मंजरी जो यहाँ पर ब्लू कलर की किताब है।
नहीं, धातु रूप नहीं भगिनी, शब्द मंजरियाम, शब्द मंजरियाम।
अच्छा, शब्द मंजरी में देखना है। ओके 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 ओके, हम धातु रूप में देख रहे हैं।
शब्दमञ्जर्यां पश्यतु कितनी बार बोला है प्लीज स्पेंड टाइम स्पेंड विथ
पर ये तो क्रिया हो गई ना
लास्ट में दिया है ना दीपा
अच्छा क्रिया हम सोचे मंजरी में है सारी
हाँ बिकॉज यू हैव नेवर लुक थ्रू योर शब्द मंजरी पुअर थिंग इज लाइंग इन निग्लेक्ट
करिष्यति
सो स्पेंड टाइम विद योर लिटिल बुक स्पेंड टाइम विद इट गेट फेमिलियर विद इट
तो शब्द मंजरी में तो सब वो नाउन वाले फॉर्म्स है ना
तो किंतु एंड में लिटिल बिट क्रिया इज गिवन
अच्छा एंड में क्रिया दी है
हाँ एंड व्हाई डोंट यू नो इज माय क्वेश्चन टू यू बिकॉज यू हैव नेवर लुक्ड देखते तो मिलता सो स्पेंड लिटिल बिट ऑफ टाइम बिकमिंग फेमिलियर विद योर शब्द मंजरी इज द ओनली वे
Achha.
See, the way to study is not necessarily to sit down and study full-heartedly. That is the best, but that doesn't happen in our life. So, ek table kitchen mein chipka ke rakho, ek table bathroom mein chipka ke rakho, ek table bistar ke paas chipka ke rakho, sone ke pehle ek baar padh ke so. These are the ways you have stickers all around the house that help you memorize. Okay. When you sit near the couch, keep this book next to you. So that when you sit, you don't go on Facebook, you don't go on WhatsApp, wasting time. What do? You pick up this book. Don't keep your phone next to you. The amount of time we spend on Facebook and all these other social media, if we spend even half of it on this Shabda Manjari, you will have known this book. So, now, Lang Rupani Akarot, पठतु भगिनी
अकरोत् अकुरुताम् अकुर्वन् अकरोः अकुरुतम् अकुरुत अकर्वम् अकुर्व अकुर्म
लघुवाक्यानि वदतु
हा लघुवाक्यानि देवः देवः अकरोत् देवः अकरोत्
अग्रिमम्
अग्रिमम् अकुरुताम् तो अकुरुताम् तौ अकुरुताम्
देवौ
अकुरुताम् देवाः अकुर्वन् देव देवौ देवा
शैलजा भगिनी अग्रिमं अग्रिमं करोतु लघुवाक्यानि
आम भगिनी
वदतु
सः किञ्चित् प्रयत्नं न अकरोत्
भगिनी भगिनी लङ् रूपाणि
लङ् रूपाणि आम भगिनी आई अंडरस्टैंड अकरोत् अकुरुतां लङ् रूपाणि वा भगिनी
लङ्
लकारः हा भूतकाल रूपाणि
शृणोति भगिनी शृणोतु प्रथम पुरुष तु दीपशिखा भगिनी उक्तवती अधुना मध्यम पुरुष लघुवाक्यानि वदतु
अकरोः मध्यम पुरुष त्वम् अकरोः युवाम् अकुरुतम् अकुरुतम् and yum akurat akurut akurut
akuruta
akurata
akuruta kavita bhagini uttam purusha rupani vadatu
just a minute aham akaravam आवाम अकुर्व वयम अकुर्म
अवगतम अधुना सर्वे
आम भगिनी
अस्तु अधुना दीपशिखा भगिनी सह किञ्चिदपि प्रयत्नं न अकरोत् किमपि कार्यं न अकरोत् अधुना लघु लघु प्रश्नान् वदतु
सः कः सः देवभक्तः कम कम क्या कम कम न अकरोत्
कम
न अकरोत् तो प्रयत्न न अकरोत्
अकरोत् नास्ति अकरोत्
सॉरी अकरोत् कार्यं न अकरोत्
प्रयत्नं न अकरोत्
कार्यं
न अकरोत्
न अकरोत्
अस्तु कीदृशप्रयत्नं न अकरोत् प्रश्नः कः कीदृशप्रयत्नं न अकरोत् कीदृश इत्युक्ते किस् प्रकार का प्रयत्न
कीदृश
कैसा दिखता है वो प्रयत्न कीदृशप्रयत्न न अकरोत् उत्तरं
किञ्चित् दपि कीदृश प्रयत्नं न अकरोत् किञ्चित् दपि प्रयत्नं न अकरोत्
किञ्चिदपि इत्युक्ते
किञ्चित् अपि इत्युक्ते किञ्चित् अपि बिल्कुल भी नहीं
किन्तु हा 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 किन्तु विग्रह करोतु अधुना तु सन्धि अभवत्
किञ्चित् प्लस् अपि
अपि हा किञ्चित् कीदृशपदं
किञ्चित्
लिङ्गं किं लिङ्गं किं
लिङ्गं
किञ्चित् सुधा भगिनी लिङ्गं किम्
किञ्चित् इति पुंलिङ्गम् अस्ति
न भगिनी
पुंलिङ्गं
किञ्चित्
नपुंसकलिङ्गं भगिनि
किञ्चिदं कथं जानीमः भगिनि
स्पोकन् संस्कृत किञ्चित्
कथं जानीमः किं योगः चित् सन्धि भूत्वा किञ्चित् किं योगः किञ्चित् कः योगः चेत् कश्चित् पुंलिङ्ग् अस्ति चेत् कश्चित् का योगः चेत् काचित् स्त्रीलिङ्ग् अस्ति चेत्
काचित्
काचित् स्त्रीलिङ्ग् कश्चित् पुंलिङ्ग् किञ्चित् नपुंसकलिङ्गम् अवगतं सर्वे
कश्चित् किञ्चित् काचित्
तदेव अधुना
चित् चित् इत्युक्ते
चित् इत्युक्ते एकम् अव्ययपदम् एव अस्ति इत्युक्ते अव्ययपदम् इव इत्युक्ते इट्स् लैक् अव्ययपदं बट् यु केनाट् यूस् इट् एस् अ पदं बै इट् सेल्फ् इट् इस् अ सफिक्स् दट् यु एड् इट् आन् किञ्चित् चित् एकं विशेष पदमस्ति किन्तु किं किं योगः चित् सन्धि भूत्वा किञ्चित् किमर्थं यकार आयाति चकार परे अस्ति किमर्थं मकारस्थाने यकार आयाति सुधा भगिनी किमर्थं मकार किं योगः चित् मकारस्थाने किम् आयाति
मकारस्थाने नकार आयाति
नकार तु न आयाति भगिनि किम् आयाति
किम् इण् इण् आयाति
इण् ञकार
ञकार ञकार
ञकार इत्युक्ते च वर्गस्य अनुनासिकवर्ण ञ ञ आयाति किमर्थं ञ आयाति तत्र
ककार अस्ति चेत् नत्वं भवति
न भगिनि ञकार किमर्थम् आयाति परवर्ण च अस्ति परवर्ण इत्युक्ते उसके आगे वाला उससे जो अगला वर्ण है उससे जो अगला अक्षर है वो क्या है चित् चकार अस्ति इत्युक्ते च वर्गस्य स सदस्य अस्ति च वर्गस्य सदस्य अस्ति चेत् ञ आयाति तस्य पूर्वम्. अवगतम्?
आं भगिनि.
हा, हौ डु वि डिसैड् विच् आफ् द अनुनासिक वर्णस् टु यूस् द परवर्ण विच् मीन्स् द वर्ण रैट् आफ्टर् देट् देट् इट् जायिन्स् वित् that determines which of the anunasik we will use.
Okay, the cha varga anunasika is nya, so that will come.
Yadi kim yogah kim asti kim bhavat yu kim yogah kim sandhi kim
kim yoga king
kim kim yogah kim
king
किं हा ङकार
ककार कावर्गस्य अनुनासिकः
तदेव तदेव. अवगतं दीप्षिका भगिनी? दीप्षिका भगिनी अवगतं वा
किं योग किं
किं योग किम् अस्ति चेत् मकार तदनन्तरं ककार ककारस्य अनुस्वार वर्ण किं अनुनासिकवर्ण किङ्किणी तभी तो वो नाम आता है किङ्किणी.
अच्छा किङ् किङ्क
किङ्किणी आयाति तत्र
ण अच्छा क एन्य किङ्क अंग अंग अच्छा क के नीचे अंग लगता है
क्यों क के नीचे नहीं लगता है
अंग के नीचे क लगता है
किमर्थम हलन्त तु मकार अस्ति किं हलन्तवर्ण किं मकार सो मकारस्थाने ङकार आयाति मकारस्थाने ङकार आयाति किमर्थं परवर्ण कवर्गस्य वर्ण अस्ति
कख ग घ अंग अंग वो अंग आता है उसका क वाले का अंग कख ग घ छ ज झ य होता है कख ग घ अंग अच्छा तो वो अंग आ जाता है इसमें. हाँ ओके हाँ आम भगिनी
सः किञ्चिदपि प्रयत्नं न अकरोत् प्रयत्नं कीदृशपदम्
प्रयत्नं
लघुप्रश्नः कः
प्रयत्नं प्रयत्नं न अकरोत् प्रश्नं होगा कम न अकरोत्
कम किमर्थम कम
कम द्वितीय विभक्ति ना कम
लिंगम
कम इज पुल्लिंगम द्वितीय विभक्ति एक वचन
किमर्थम पुल्लिंगम समीचीनम
किमर्थम पुल्लिंगम कम
किमर्थम कम अत्र प्रयत्न पुंलिङ्गं पदमस्ति तदेव
प्रयत्नं हा पुंलिङ्गं पदमस्ति
प्रयत्नं तु पुंलिङ्गं द्वितीयविभक्ति एकवचनं
द्वितीयविभक्ति हा प्रयत्नं पुंलिङ्गं द्वितीयविभक्ति अस्ति तो कम कम न अकरोत् इसलिए कम प्रश्नवाचकः शब्द आसीत्
कम न अकरोत् प्रयत्नं न अकरोत् अधुना कार्यं न अकरोत् प्रश्नवाचक किं तत्र
कं न अकरोत् तो कार्यं न अकरोत्
कार्यं कीदृशपदं भगिनि
कार्यं कार्यं द्वितीय विभक्ति एकवचन
लिङ्गम् अपि अस्ति वा न वा
नहीं सॉरी द्वितीय विभक्ति एक वचन
अस्तु लिंगम किम भगिनी
कार्यम लिंगम पुल्लिंगम
न
नहीं कार्यम्।
अन्य कोऽपि वदतु।
कार्यं नपुंसकलिङ्गं। कार्यं नपुंसकलिङ्गं।
लघु प्रश्नः कः?
तो लघु प्रश्न हो गया किम्। किम् किम् न अकरोत्, कार्यं न अकरोत्।
कार्यं न अकरोत्, अपि च कम् न अकरोत्।
कम् न अकरोत् तो प्रयत्नं न अकरोत्।
लघु प्रश्नौ किञ्चित् भेदः सः। प्रश्नयोः किञ्चित् भेदः। द्वयोः प्रश्नयोः किञ्चित् भेदः सः। किमर्थम्? प्रथम तु पुंलिङ्गं, द्वितीय तु
नपुंसकलिङ्गम्।
उत्तमम्। अस्तु सुधा भगिनी,
भगिनी, एक्स्क्यूस् मी भगिनी, ऐ हेव् टु लीव् नौ भगिनी, सोरि,
चिन्ता मास्तु,
सोरि भगिनी।
नमस्कारः भगिनि। अस्तु सुधा भगिनी,
धन्यवादः गीता भगिनी।
धन्यवादः।
देवः एव सहायतां करिष्यति इति तस्य विश्वासः आसीत्। देवः एव सहायतां करिष्यति
इत्युक्ते प्रथमवाक्यं किं? प्रश्नः कः? लघुवाक्यं कः आसीत्?
देवभक्तः आसीत्।
कः आसीत्?
कः आसीत्? देवः ए आसीत्।
देवः आसीत्, देवभक्तः तु न,
देवः आसीत्।
देवः आसीत्, अस्तु अग्रिमम्।
देवः करिष्यति। देवः
कः करिष्यति?
देवः करिष्यति।
अस्तु अत्र तु देवः आसीत् समीचीनम्। कथं जानीमः कर्तृपदं किं तत्र आसीत् इति पदस्य?
देवः आसीत् इति पदस्य कर्तृपदं देवः अस्ति
न भगिनि? देवः एव सहायतां करिष्यति इति तस्य विश्वासः आसीत्। कः आसीत्?
विश्वासः आसीत्।
अत्र देवः आसीत् तु न,
प्रथम वाक्यस्य कर्तृपदं देवः अस्ति। देवः एव सहायतां करिष्यति इति वाक्ये देवः कर्तृपदम् अस्ति। द्वितीयवाक्यस्य कर्तृपदमस्ति विश्वासः, तस्य विश्वासः आसीत्।
उत्तमं, देवः करिष्यति, विश्वासः आसीत्। वाक्ये द्वे वाक्यद्वयं स्तः तत्र। देवः करिष्यति। अग्रिमं करिष्यति कीदृशपदं किञ्चित् विवरणं?
करिष्यतम् इति भविष्यत्काल लृट् लकारः प्रथमपुरुष एकवचनपदम्।
करिष्यति इत्युक्ते देवः करिष्यति, देवौ
करिष्यतः,
देवाः
करिष्यन्ति। करिष्यसि,
देवं तु करिष्यसि न, त्वं करिष्यसि भगिनि,
त्वं सोरि त्वं करिष्यसि।
देवः करिष्यति इत्युक्ते देवः तु कर्तृपदं, देवं करिष्यति इत्युक्ते
देव को करते हैं।
Somebody is
doing for Deva.
Somebody will do for or to Deva. Tadeva. Uttamam. Devah karishyati. Azuna nak agrimam par prashna kaha?
Devah kim karishyati?
Kim va?
Sahaya.
लिङ्गं किं तत्र?
सोरि, नपुंसकलिङ्गम् अस्ति करेक्ट् सहाय
सहायता इति
सहायता
दीर्घ आकारान्त अस्ति अत्र तु
सहायता पुंलिङ्गम् अस्ति
न भगिनि
स्त्रीलिङ्गपदमस्ति
दीर्घ आकारान्त तावत् अस्ति लतावत् अस्ति सहायता सहायता इत्युक्ते सहायस्य भावः तद्धित तद्धितरूपम् अस्ति एकम् आ ता अस्ति सहायता तु स्त्रीलिङ्गरूपम् अस्ति सहायत अधुना प्रश्नः कः
काम देवः काम करिष्यति देवः सहायतां करिष्यति
उत्तमम् उत्तमम् अग्रिमम्
एव इति शब्दस्य प्रश्नवाचक अस्ति वा किञ्चित्
इत्युक्ते कीदृशकः इत्युक्ते कीदृश करिष्यति देवः एव इत्युक्ते किमपि अन्य न करिष्यति देवः एव करिष्यति किमपि अन्य अस्ति वा स्वयमेव इत्युक्ते कीदृशदेव देव स्वयमेव स्वयमेव देवः एव सहायतां करिष्यति अन्य को अन्य किमपि अस्ति वा अन्य कोऽपि अस्ति वा न अन्य
अन्य किमपि नास्ति देवः एव सहायतां करिष्यति
अन्य कापि अन्य कापि सहायतां न करिष्यति
देवः एव सहायतां करिष्यति
करिष्यति इति अधुना तस्य
तस्य विश्वासः आसीत् कस्य विश्वासः आसीत् देवभक्तस्य विश्वासः आसीत्
कस्य विश्वासः देवभक्तस्य विश्वासः देवभक्तः विश्वासः देवभक्तस्य विश्वासः विश्वासः इति पदस्य विषये वदतु
विश्वासः इति पुंलिङ्ग एकवचन प्रथमविभक्ति एकवचन कर्तृपदमस्ति
उत्तमं कर्तृपदमस्ति
विश्वास अकारान्त पुंलिङ्गपदमस्ति
द्विवचने अस्ति चेत् अधुना तु विश्वासः आसीत् एकवचनं द्विवचने अस्ति चेत्
विश्वासौ
सम्पूर्णतया वदतु विश्वासस्य
विश्वासौ आसीत् नै आसाम्
आसाम् विश्वासौ आसाम् तदनन्तरं
बहुवचनं वा तस्य विश्वासाः आसन्
आसन् विश्वासाः आसन् बहुवचनमस्ति चेत् विश्वासाः आसन् उत्तमम् उत्तमं समीचीनं बहु किमपि क्लिष्टः जातः अद्य अभ्यासेन किन्तु समीचीनमेव अस्तु 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 धन्यवादः अस्तु कविता भगिनी अवगतं किञ्चित् किञ्चित्
बहु किमपि किञ्चित् किञ्चित्
पुनः पुनः वारं वारं किं ध्वनिमुद्रणं
शृण्वन्तु
शृणोतु करोतु भगिनि वारं वारं किमर्थं किञ्चित् संस्कृतभाषा मनसि तिष्ठति अपि च संस्कृतभाषायां प्रवचन शृणोतु शृणोतु इवन् इफ् यु हेव् 1% अण्डर्स्टाण्डिङ्ग् इट् विल् स्लोलि ग्रो युर् ब्रेन् actually your brain picks up faster when you are by itself than when you think you are working with it, because what we do is we interfere with it. Am I right, Papaji? If you simply listen to Sanskrit, it will pick it up.
Automatically.
Or anything, it will pick it up. But the minute you start to say, wait a minute, what is, I don't know this word, I don't know, this doesn't seem to match, here the lingam is not matching, my teacher taught me this, all of this is interference. It stops the brain from working as efficiently.
The whole child learns faster.
Because they simply don't question, they simply listen. This is the best way to learn a language. Simply listen. This is the best. So many more speakers are better than me. I'm one of the worst Sanskrit speakers. So you listen to some good speakers. So many pravachans are there in Sanskrit. Short stories are there. Many, many short stories. Very, very short, simple stories Google and YouTube and MP3 files you can find everywhere. Short stories. Chaturaha, Kakaha. Simple stories we already know. Keep listening. It allows your brain to learn faster than you can by active reading. Astu Antima Shanti Patha. Kim. Sudha Bhagini Bhagatu.
Aam Bhagini. सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णम् एव अवशिष्यते ॐ शान्ति शान्ति शान्तिः श्री गुरुभ्यो नमः हरिः ओम् सर्वं श्रीकृष्णार्पणमस्तु हरिः ओम्
धन्यवादः भगिनी भगिनी सुधा भगिनी
आं भगिनी
मन्त्र यथा दत्तं तदेव वयं वक्तव्यम् इत्युक्ते पूर्णमेवावशिष्यते एव पूर्णमेव अवशिष्यते तु न सन्धि भूत्वा पूर्णमेवावशिष्यते यथा किमपि कानि मन्त्राणि किमपि अस्ति सन्ति यथा दत्तानि तथा वक्तव्यम् उत्तमम्
अर्थं समाने एव परन्तु यथा दत्तं तथा वक्तव्यं
तथा वक्तव्यम् अस्तु हा पापाजी प्रणाम नमस्कारः सर्वेभ्यः
नमस्ते थैंक यू भगिनी
नमस्कारः भगिनी
या आई मीन आई बीन ट्राइंग टू बट आई हैव नॉट आई डोंट नो व्हाट्स द बुक एक्चुअली
सॉरी इफ यू कैन स्टॉप द रिकॉर्डिंग भगिनी
अस्तु एक निमिष